अथाष्टादशोऽध्याय अर्जुन उवाच सन्यासस्य महाबाहो तत्त्वमेच्छामि वेदितुम् त्यागस्य च ऋषिकेश पृथक्केशिनिषूदन श्रीभुवनुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदु सर्वकर्मफलत्यागं प्राहोत्यागं विचक्षणा त्याज्यं दोषवदित्येके कर्म प्राहोर्मनीषिणा यज्ञदानतपः कर्म न त्याज्यमिति चापरे निश्चयं शृणु मे तत्र स्यामि भरत सत्तम त्यागो हि पुरुष व्याघ्रीव सम्प्रकीर्तित यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् यज्ञोदानं तपश्चैव पावनानि मनीषिणाम् एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थ निश्चितं मतमोत्तमम् नियतस्य तु संन्यास कर्मणोऽनुपपद्यते मोहात्तस्य परित्याग सामसः परिकीर्तित दुःखमेत्येव यत्कर्म कार्यकृशभराद्यते रक्षित्वा राजसंत्यागम् नैव त्यागफलं लभे कार्यमेत्येव यत्कर्म नियतं क्रियते अर्जुन सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्विको मथ न द्वेष्ट्यकुशलं कर्म कुशलेनानुसज्यते यागी सत्त्वसमावेष्टो मेधावीच्छिन्न संशय न हि देहभृताशक्यं त्यक्तुं कर्माण्यशेषत यस्तु कर्मफलत्यागी स त्यागी च्यभिधीयते अनेष्टमेष्टं मेष्टं च त्रिविधं कर्मणः फलम् भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वते पञ्चैकानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् त्रिविधास्त पृथक् चेष्टा दैवं चैवात्र पञ्चमम् शरीरवां मनोभैर्य कर्मत्रारभते नर न्याय्यं वा विपरीतं वा पञ्चैते कस्य हि तवम् अत्रैवं सति कर्तारो आत्मानं केवलं तुयं पश्यत्यकृतबुद्धित्वा न स पश्यति पूर्वति यस्य नाहं कृतो भावो बुद्धिर्यस्य न लिप्यते हत्वा विषयवाल्लोकान् न हन्ति न निबध्यते ज्ञानं ज्ञेयं परिज्ञात त्रिविधा कर्मचूर्णा कर्णं कर्म कर्तेति त्रिविध कर्म संग्रह ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदः प्रोच्यते गुणसंख्याने यथा वस्तुतान्यपि सर्वभूतेषु येनैकं भावमव्ययमीक्षते अविभक्तं विभक्तेषु ज्ञानं देभिसात्विकम् पृथक्तेन भूयज्ञानं नानाभावान् पृथग्विधान् वेत्ति सर्वेषु भूतेषु सज्ञानं देद्धिराजसं यत्सु कृष्णवदेकस्मि कार्ये सक्तमहेतुकम् अथ त्वार्थवदल्पं च तत्तामसमुदाहृतम् नियतं सङ्गरहित नरावद्वेषतः कृतम् सफलपेषु न कर्म यत्सात्विकमुच्यते यत्तु कामेषु न कर्म साहङ्कारेण वा पुनः क्रियते बहुलायासु सद्राजसमुदारितम् अनुबान्धं स्वयं हिंसा मनवेक्ष्य च पौरुषम् मोहादारभ्रते कर्म यस्तत्तामसमुच्यते मुक्तसङ्गो न हंवादे शिष्योत्साहसमन्वित सेध्य सेध्योर्निर्विकार कर्ता सात्विक उच्यते रागी कर्म फलप्रेषु लोभो हिंसात्मकोषते हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः अयोक्तः प्राकृतः स्तब्धः सथोलैस्तृतिकोलसः विषादे दीर्घसूत्री च कर्ता तमस उच्यते बुद्धिर्भेदं धृतेस्तैव गुणतस्विधं शृणु प्रोच्यमानमशेषेण पृथक्तेन धनञ्जय प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भजाभजे बन्धं मोक्षं च जावेत्ति बोधे सापार्थ सात्विकी यया धर्ममधर्मं च कार्यं च कार्यमेव च अयथावत् जानाति बुद्धिः पार्थ राजसि अधर्मं धर्ममिति या मान्यते तमसा वृता सर्वार्थान्यपरीतांश्च बुद्धिः सपार्थतामसि धृत्याय या धारयते मनः प्राणेन्द्रियक्रिया योगेनाव्यभिचारेण्या धृतिः सपार्थसात्विकी यातु धर्मकामार्थान् धृत्यधारयते गुणा प्रसङ्गेन फलाकाङ्क्षे धृतिः सपार्थ राजसि यया स्वप्नं भयं शोकं विषादं मदमेव च न विमोचति दुर्वेदा धृतिः सपार्थतामसि सुखं पिदानं त्रिविधं श्रुणे भरतर्षभ अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति यत्तदग्रे विषमिव परिणामे मृतोपमं तत्सुखं सात्विकं लोक्य मात्मबुद्धे प्रसादजं विषयेन्द्रियसंयोगा यत्तदग्रे मृतोपमं परिणामे विषमिव सुखं राजसंस्मृतं यदग्रे चानुबन्धे च सुखं मोहनमात्मना निद्रालस्य प्रमादोत्थं तत्तामसमुदारितं न तदस्ति पृथिव्यं वा त्रिविदेवेषु वा पुनः सत्त्वं प्रकृतिजैर्मुक्तं यदि स्यात्त्रिभुजुनैः
ब्राह्मणा क्षत्रियविषां शूद्राणां च परन्तप कर्माणि कवि भक्तानि स्वभाव
समोदमस्तथा शौचो शान्तिराजवमेव च ज्ञानं विज्ञानमासेख्यं ब्रह्मकर्मस्वभावजं शौर्यं तेजोधृते राक्षं योद्धे साप्यपलायनम् दानमीश्वरभावस्य क्षातं कर्म स्वभावजं कृषिगौरक्षवाणिज्यं वैश्यकर्मस्वभावजं परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् देशे कर्माण्यभिरत संसिद्धि लभते नर स्वकर्मनिरत सिद्धि यथा विन्दति सत्सिनु यथा प्रवृत्तिर्भूतन येन सर्वमिदं सतम् स्वकर्मणा समभ्यर्थ्य सिद्धिं विन्दति मानव श्रेयां स्वधर्मो विगुण स्वर्धर्मा स्वनोऽस्तु स्वभावनीय कर्म पूर्वान्नाप्नोति कीर्दृशम् सहजं कर्म कौन्तेयो सदोषमपि न त्यजेत् सर्वारम्भै दोषेण ृता असद्धवोद्धे सर्वत्र युगात्मा युगचक्षुः नैश्चर्म्यसिद्धं कर्मा सन्न्यासेनाधिगच्छति सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोधने समासेनैव कौन्तेयो निश्चयमस्य या परा बुद्ध्या विशुद्धया योक्तो भीत्यात्मानं नियमत शब्दादीन् विषयाश्च रागद्वेषोऽभ्युदस्य च विविक्तसेवी लघ्वासि यत् वा कार्यमानस ज्ञानयोगपरो नित्यं वैराग्यं समुपाश्रित अहङ्कारं बलं दत्तं कामं क्रोधं परिग्रहम् विमोच्य निर्मम शान्तो ब्रह्मभूयाय कल्पते ब्रह्मभूता प्रसन्नात्मा न शोचति न काङ्क्षति समा सर्वेषु भूतेषु मद्भक्ति लभते परा भक्त्या मामभिजानासि यावान् यस्तासि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् सर्वकर्माण्यभिषदा पूर्वाणो मद्यपाशय मत्प्रसादादवाप्नोति शाश्वतं परमव्ययम् एतसा सर्वकर्माणि मयि सन्यस्य मत्पर बुद्धियोगमपाश्रित्य मत्चित्तः सततं भव मत्चेत्तः सर्वदुर्गाणि मत्प्रसादात् करिष्यसि अथ ते त्वमहङ्कारान्नशोष्यसि विनाशसि यदहङ्कारमाश्रित्य न योष्य इति मन्यसे नित्यैष व्यवसायस्ते प्रकृते स्वां नियोक्ष्यति स्वभावदेन कौन्तेय निबद्धस्तेन कर्मणा कर्तुं नेच्छसि यन्मोहात् करिष्यस्य वशोपितः ईश्वर सर्वभूतानि सिद्धुनतिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया तमेव शरणं गच्छ सर्वभावेन वारत तत्र सादात् परां शान्ति स्थानं प्राप्स्यसि शाश्वतम् इति ते ज्ञानमाख्यातम् गोह्याद्गोह्यतरं मया विमृश्यैकादशेषेण यथेच्छसि तथा कुरु सर्वगुह्यतमं भूय शृणु मे परमं वच एष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् मान्मना भव मध्वतो मद्यादीनामस्कुरु मामैवैष्यसि सत्यन्ते कति जाने प्रियोऽसि मे सर्वधर्मान्तरित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोचयिष्यामि मा सुत इदं ते नाथ तस्याय मा वक्ताय कदाचन नाथाशुश्रूषदेवाच्यं न च मां योग्यसूयति
यैमं परमं भूयं माधाते सर्धास्यते भग्नं मयि परां कृत्वा मामेवैष्यच्य संशय न स तस्मान् मनुष्येषु अस्मिन् मे प्रियकृत्तमा भविता न च मे तस्मा सन्यः प्रियतरो भुवि
अध्येष्यते जयमिमं धर्मं संवादमावयो ज्ञानयज्ञेन सेना नेष्टस्यानुजिनेमसि श्रद्धावानन सूयस्य शृणुयादपि यो नर को विमुक्तः शुभाय लोका प्राप्नुयात् पुण्यकर्मणा तत्कृतच्युतं पार्थ त्वयैकाग्रेण चेतसा कश्चिदज्ञानसम्मोह प्रनष्टस्ते धनञ्जय अर्जुनवाच नष्टो मोहस्मृतिर्लब्धा यत्प्रसारान्मयाच्युत स्थितोऽस्मि गतसन्देह करीषे वचनं तव सन्दर्वत् इत्यहं वासुदेवस्य पार्थस्य च महात्मन संवादमिममाशंस मद्भुतं रोमहर्षिणि व्यासप्रसादाच्युतमा एतद्गुह्यमहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् राजन् संश्लेष्य संसेत्य संवादमिममद्भुतम् केशवार्जुनयोः पुण्यम् भविष्यामि च मुर्मुः तच्च संश्लेष्य संश्लेष्य रूपमत्यद्भुतम् हरे विस्मयो मे महान् राजन् भविष्यामि च पुनः पुनः यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धर तत्र श्रीर्विजयो भूषि सुवानेतेर्मतेर्मम यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धर तत्र श्रीर्विजयोभूति ध्रुवानीतेर्मतेर्वन ओम तत्सदति श्रीमद्भगवद्गीताश्रीकृष्णपुराणमुख्यायाश्रीकृष्णारूपिण्डाले मोक्षसन्यासयोगनामष्टावधूध्याय वसुदेवसुतं देवं पंचजानुरमर्दनं देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं।